अथ द्वितीयोऽध्यायः साङ्ख्ययोगः। सञ्जय उवाच, तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् विषिदन्तमिदं वाक्यम् उवाच मधुसूदनः।